एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। ह्या आराष्ट्रम् अतिरिक्तेषु सप्ताशीत्यधिक पञ्चसहस्रे जनेषु कोरोना विषाणोः संक्रमणम् पुष्टीभूतमस्ति। ह्यस्तनवधि आराष्ट्रम् अष्टादश सहस्राणि शतद्वयम् पञ्चत्रिंशच्च सक्रिय संक्रान्ताः जनाः वर्तन्ते इति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितम् वर्तते। ह्य दश वर्षत्व न्यूनवयस्कासु एकषष्ट्याम् बालबालिकासु एकादश वर्षत्व विंशति वर्षाणाम् वयसमूहस्य एक पञ्चाशद अधिक शतत्रये च जनेषु कोरोना विषाणु संक्रमणम् पुष्टीभूतमस्ति। ह्य षडुत्तर शतत्रयम् जनाः कोरोना संक्रमणात् मुक्ताः वर्तन्ते। संक्रमणेन नेपाले ह्य अतिरिक्ताः त्रयो जनाः मृताः सन्तीति मन्त्रालयेन ज्ञापितमस्ति। निर्वाचनायोगाय विभिन्न राजनीतिक दलैः निर्धारित समय एव निर्वाचनम् विधातुम् परामृष्टमस्ति। राष्ट्रिय सभायाः स्थानीय स्तराणाम् च आसन्न निर्वाचनस्य विषये निर्वाचनायोगेन ह्य आयोजिते सर्वदलीयोपवेशे दलानाम् नेतृभिः एवम् परामृष्टमस्ति। उपवेशस्य पश्चात् संचारकर्मिभिः सह भाषमाणः नेपाली कांग्रेस दलस्य नेता रमेश लेखकः राष्ट्रिय सभायाः आसन्न निर्वाचने मतदान केन्द्राणि वर्धयितुमपि परामृष्टमिति ज्ञापितवान्। नेता लेखकः स्थानीय स्तराणाम् निर्वाचनस्य विषये सर्वकारेण सह विमृश्य शीघ्रमेव निष्कर्षम् प्राप्नुयात् इति धारणा उपस्थापितेति अज्ञापयत्। एवमेव उपवेशे सहभागी प्रमुख प्रतिपक्षी नेकपा एमाले दलस्य नेता विष्णु रिमालः निर्धारित समय एव निर्वाचनम् विधेयमिति आयोगस्य कथनम् आत्मना समर्थितमिति अज्ञापयत्। उपवेशे प्रमुख निर्वाचन आयुक्तः दिनेश थपलिया निर्वाचन विधेयरनुसारेण आयोगाय पूर्व कार्यार्थम् निर्धारितानि विंशत्यधिक शत दिनानि न्यूनायमानानि सन्तीति चर्चयन् अस्यैव माघस्य प्रथम सप्ताहस्य अभ्यन्तरे स्थानीय स्तराणाम् निर्वाचनस्य दिनांकाः उद्घोष्टव्याः इति धारणा उपस्थापितवान् इति आयोगस्य प्रवक्ता शालिग्राम शर्मा पौडेलः अज्ञापयत्। नेपाली कांग्रेस दलेन लिपुलेख वर्तिनी नेपालस्य भूभागे भारतेन निर्माणाधीन मार्गस्य कार्यम् रोद्धुम् अभियाचितमस्ति। नेपाली कांग्रेस दलेन ह्य विज्ञप्तिम् प्रकाश्य ह्यो द्वयोः राष्ट्रयोः सीमसम्बन्धस्य प्रश्नस्य समाधानम् ऐतिहासिक तथ्यानाम् आधारेण भवितव्यमिति ज्ञापितमस्ति। कांग्रेस दलेन लिपुलेख क्षेत्रे भारतेन मार्ग निर्माणस्य विषये भारतीय प्रधानमन्त्रिणः अभिव्यक्तिम् प्रति आपत्तिम् प्रकटयता नेपालस्य भूम्याम् नेपालस्य भोगाधिकारस्य विषये कालापानी क्षेत्रात् भारतीय सैनिकानाम् प्रत्यावर्तनस्य च विषये नेपाली कांग्रेस दलस्य विचारः स्पष्टमस्तीति ज्ञापितम् वर्तते। नेकपा माओवादी केन्द्रेण भारतः नेपालस्य सार्वभौमाधिकाराणाम् भौगोलिक्याखण्डतायाश्च सम्मानाय अनुरुद्धो वर्तते। माओवादी केन्द्रस्य नेत्रा अन्तर्राष्ट्रिय विभाग प्रमुखेण च नारायणकाज श्रेष्ठेन ह्यो विज्ञप्तिम् प्रकाश्य सम्प्रत्येव भारतस्य प्रधानमन्त्रिणा नरेन्द्र मोदिना नेपालस्य भूम्याम् लिपुलेख स्थाने मार्गविस्ताराय उद्घुष्टोस्तीति निगद्य अस्य कार्यस्य विरोधः विहितोऽस्ति। माओवादी केन्द्रेण भारतः पञ्चशील सिद्धान्तस्य अवलम्बनाय अपि अनुरुद्धो वर्तते। अद्य मकर संक्रान्ति पर्व। सूर्यः धनुराशितः मकर राशिम् प्रविशति। अद्यतः एव उत्तरायणम् प्रारभते। अद्य विहितानाम् स्नान जप तपो ध्यान साधना दानानि पुण्यदायकानि मन्यन्ते। थारु समुदायेन अद्यतनम् दिनम् नवीनवर्षस्य प्रथम दिनम् मन्यते। समुदायेऽस्मिन् माघी पर्वेति नाम्ना प्रथितम् दिनमेतत् स्नानदान भोजन मनोरञ्जनादि कार्याणि सम्पाद्य नववर्षस्य रूपेण सम्मान्यते। अद्य आराष्टम् देवघाट त्रिशूली कालीगण्डकी बागमती इन्द्रावती त्रिवेणी रीडी प्रभृतिषु स्थानेषु स्नानादि कार्यम् विधातुम् महदमेलापकम् आयोज्यते। वर्षेऽस्मिन् कोरोना महामार्याः कारणेन सर्वकारेण कतिपय स्थानेषु मेलापकम् निषिद्धमस्ति। कतिचिच्च स्थानेषु जनाः स्वास्थ्य सावधानताम् अवलम्ब्य स्नानादि कार्यम् विदधानाः वर्तन्ते। अवसरेऽस्मिन् शुभकामना सन्देशम् प्रददत्या राष्ट्रपतिना विद्यादेवी भण्डारिणा नेपालस्य विभिन्न समुदाये आयोज्यमानम् मकर संक्रान्ति पर्व स्वदेशे विदेशे च स्थितानाम् सम्पूर्ण नेपाली भातृ भगिनीनाम् कृते सुख शान्ति समृद्ध्यर्थम् हार्दा मंगलमय शुभकामना व्यक्तास्ति। राष्ट्रपतिना भण्डारिणा विविधतापूर्ण नेपाली समाजम बृहद राष्ट्रियकताया भावनायाम आबद्धम कर्तुम माघी पर्वणा योगदानम प्रदत्तमस्तीति चर्चयन्त्या कोविड उनविंशतेः महामार्याः वर्तमानावस्थायाम् स्वास्थ्य सुरक्षायाः मापदण्डान् परिपाल्य स्वीय स्वास्थ्य अवस्थां ध्यात्वा पर्वेदम् आयोजयितुम् अनुरुद्धमस्ति। उपराष्ट्रपतिना नन्दबार दुर्पुन इत्यनेन च आराष्ट्रम कोरोना विषाणोः संकटः वर्धमानोस्तीति ज्ञापयता सुरक्षायाः मापदण्डान् अवलम्ब्य पर्वेदम् समायोजयितुम् अनुरुद्धम् वर्तते। मकर संक्रान्ति पर्वणः पावनावसरे प्रधानमन्त्रिणा सेवादेवाभिधेन स्वदेशे विदेशे च स्थितेभ्यो नेपालीभ्य शुभकामना व्यक्ता वर्तते। कोविड महामार्याः नियन्त्रणाय अवलम्बितान् नियमान् ध्यात्वा पर्वेदम् समायोजयितुम् प्रधानमन्त्री देवा अन्वरुणत् एवमेव माओवादी केन्द्रस्य अध्यक्षेण पुष्पकमल दाहाल प्रचण्डेन विशेषत थारू मगर समुदायेषु सुप्रसिद्धस्य मकर संक्रान्ति पर्वणः शुभकामना प्रदत्ता अस्ति। सभामुखेन अग्निप्रसाद सापकोटाभिधे मकर संक्रान्ति पर्व नेपालस्य भौगोलिक जातीय सांस्कृतिक विविधतायाः उदाहरणमस्तीति चर्चयता शुभकामना प्रदत्ता वर्तते। राष्ट्रिय मानवाधिकारायोगेन निर्धारित समये विमानोड्डयनस्य विलम्बनोड्डयनस्य च सूचनायाः यथासमये विमान संस्थानेन यात्रेभ्यः अप्रदानस्य च कारणेन यात्रिणाम् उपभोक्ताधिकारस्य हननम् सम्मुतमस्तीति ज्ञापितम् वर्तते। ह्यः काष्ठमण्डपे आयोजिते विमानोड्डयनेन नागरिकाणाम् उपभोक्ताधिकारेण च सम्बद्धे विमर्शन कार्यक्रमे आयोगस्य अध्यक्षः तपबहादुर मगर उपभोक्तृणाम् अधिकाराणाम् संरक्षणम् सेवाम् च व्यवहारिक्यौ मर्यादिते च विधातुम् सम्बद्ध निकायस्य ध्यानम् आकर्षयत। चिकित्सा महाविद्यालयैः निर्धारितात् अधिक शुल्कस्य ग्रहणस्य प्रारम्भानन्तरम् शिक्षा विज्ञान प्रविधि मन्त्रालयेन सम्बद्ध निकायैः सह वार्ता विहितास्ति। शिक्षा मन्त्रिणः देवेन्द्र पौडेलस्य अध्यक्षतायाम् ह्यः सिंहप्रासादे विहितायाम् वार्तायाम् अतिरिक्त शुल्कम् ग्रहीतुम् छात्रावासस्य व्यवस्थाम् अनिवार्यम् कर्तुम् च न शक्यते इत्यादि विषयेषु विमृष्टमस्ति इति समाचाराः।